एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते नेपाली अतःपरम् सर्जनानुसन्धाने केवलम् परम्परा वहनाय सीमिते न विधातव्ये। नेपाल प्रज्ञा प्रतिष्ठानस्य 67वां वार्षिकोत्सवस्य अवसरे गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड नेपाली समाजस्य सामाजिक संरचनायाम् राजनैतिक व्यवस्थायाम् च सम्भूतम् परिवर्तनम् संस्थागतीकर्तुम् रूपान्तरणम् आवश्यकम् अस्तीति समस्पष्टयत्। प्रधानमन्त्री प्रचण्ड अकथयत् नेपालस्य वर्तमान संविधानस्य मर्म भावनयोः अनुरूपम् नेपालस्य सर्वाः भाषाः एतासाम् साहित्य संस्कृति ज्ञानानाम् विभिन्नाः शाखाश्च प्रवर्ध्य विकस्य च अग्रे वर्धनम् प्रज्ञा प्रतिष्ठानस्य दायित्वम् कर्तव्यम् च वर्तेति। शंखुवासभा जनपदे जलविप्लव भूस्खलनाभ्याम् विलुप्तानाम् जनानाम् अन्वेषणाय प्राप्त प्रशिक्षणौ कुकुरौ परिचालितौ स्तः। अस्यैव आषाढस्य द्वितीय दिवसस्य रात्रौ अविरलवृष्ट्या दूरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन विंशतिर्जनाः अधुनापि विलुप्ताः सन्ति। नेपाल प्रहरिणा धरानस्थानातानीतेन प्राप्त प्रशिक्षणेन कुकुरद्वयेन ह्य सभा खोलास्थानतः अन्वेषणम् प्रारब्धमिति शंखुवासभायाः प्रमुख जनपदाधिकारी शिवकुमार कार्की अज्ञापयत्। जसपा नाम्नो जनता समाजवादी दलस्य केन्द्रीय समितेः ह्य उपविष्टेन उपवेशेन विधानस्य प्रारूपम् अनुमोदितम् वर्तते। एतद्दलस्य अद्य काष्ठमण्डपे प्रारभमाणे विधानाधिवेशने अनुमोदितस्य विधानस्य प्रारूपमिदम् प्रस्तूयते इति केन्द्रीय प्रचार विभागस्य प्रमुखः पूर्णवर्षनेत अज्ञापयत्। उपवेशेन सशस्त्र जनयुद्ध जनान्दोलन मधेश जनविद्रोह सदृशेभ्यो राजनीतिक संघर्षेभ्यो जनान्दोलनेभ्यश्च प्राप्तानाम् उपलब्धीनाम् रक्षार्थम् संगठिताः दलसम्बद्धा समाजवादी संयुति अनुमोदितेति विभाग प्रमुख बस्नेत अबोधयत। उपवेशेन केन्द्रीय कार्यकारी समित्याः राजनीतिक समितेश्च उपवेशेन इतः पूर्वम् विहितान् निर्णयान् अनुमोद्य निर्वाचने अन्तर्घातम् कुर्वतोः दलस्य पञ्च केन्द्रीय सदस्यान् दलस्य सदस्य पदात् निष्कासयितुम् निर्णीतमिति विभाग प्रमुख बस्नेत असूचयत। अद्य प्रारभमाणे विधानाधिवेशने केन्द्रीय समितेः 23-400 सदस्याः प्रदेश समिति राष्ट्रिय समिति प्रदेश विशेष प्रदेश समिति जनपद समितिनाम् महानगर भ्रातृ संगठनानाम् केन्द्रीय समित्या मनोनीतैः 10 जनैश्च सह 78-700 प्रतिनिधयः भवन्तीति दलमिदम् ज्ञापयति। अर्थमन्त्री डाक्टर प्रकाश शरण महत कथयति सर्वकारेण सूचना प्रविधेः क्षेत्राय महत्वम् प्राथमिकता च प्रदत्ते स्तः। आईसीटी फाउण्डेशन प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते एतद् ख्रीष्टवर्षीयम् डिजिटल नेपाल कन्क्लेव मेलनम् समापयन् अर्थमन्त्री डाक्टर महत सर्वकारेण सूचना प्रविधेः प्रवर्धनस्य संरक्षणस्य च नीतिः अग्रे सारितास्तीति अवोचत। अर्थमन्त्री डाक्टर महत सूचना प्रविधौ युवसन्ततेः आकर्षणम् वर्धमानमस्ति। सम्प्रति सुसांख्यान्तर प्रविधेः निर्यातः जायमानो वर्तते। नेपालः डिजिटल प्रविधेः उत्पादन केन्द्रम् सुसांख्यान्तर प्रविधेः निर्यातस्य केन्द्रम् च सम्पादयिष्यते इति च उदैरयत। कार्यक्रमे सांसदौ प्रदीप पौडेलः सूर्य ढकालश्च संचार सूचना प्रविधि मन्त्रालयस्य सचिवः कृष्णबहादुर राउत च विचारान् व्यक्तवन्तः। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत कथयति आयव्ययकस्य क्रियान्वयनाय सर्वैर्मिलित्वा सञ्चालनीयम्। सिन्धुपाल्चोक जनपदस्य बारविशे नगरपालिकायाः त्रयोदशीम् नगरसभाम् ह्य उद्घाटयन् असौ अवदत् त्रयाणामेव स्तराणाम् सर्वकारैः आनीतम् आयव्ययकम् सर्वेषाम् समन्वयेन मन्त्री बस्नेत सर्वैः जनप्रतिनिधिभिः जनतायाः यथार्थ प्रतिनिधिभिर्भाव्यमिति भासमाणः आयव्ययकस्य निर्माणे एतस्य क्रियान्वयनेन च सावधानताम् अवलम्बितुम् बलम् प्रादात्। नेपाले बालमृत्योः न्यूनीकरणाङ्केषु उल्लेखनीया प्रगतिः सम्भूता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन सार्वजनिकृतेन गत ख्रीष्टवर्षीयेन नेपाल जनसांख्यीय स्वास्थ्य सर्वेक्षणेन बालमृत्योः अनुपातः न्यूनीभूतः इति प्रदर्शितोऽस्ति। त्यधिकैको न विंशति शततमे ख्रीष्टवर्षे पञ्चवर्षत्यो न्यूनवयसः प्रतिसहस्रम् बालबालिकासु प्रतिवर्षम् अष्टादशाधिक शतम् जनाः म्रियमाणाः आसन् अनुपातोऽसौ सम्प्रति त्रयस्त्रिंशति अंकेषु प्राप्तोस्तीति सर्वेक्षणे उल्लिखितम् वर्तते। नवजात शिशूनाम् मृत्योः अंकमानोऽपि प्रतिसहस्रम् अष्टासप्ततितः न्यूनीभूय एकविंशतिम् प्राप्तो वर्तते इति दर्शितम् वर्तते। सामाजिक सुरक्षा कोषेण सामाजिक सुरक्षा योजनायाः कृते योगदानकर्तृभ्यः आसन्न 50 रूप्यकाणां निवेदितं वित्तं प्रदत्तं वर्तते। कोषेण अधुनावधि विभिन्नाभ्यः सुरक्षा योजनाभ्यो योगदानकर्तृभ्यः अब्जत् 74 कोटयश्च रूप्यकाणि प्रदेय वित्तस्वरूपेण दत्तानि सन्ति। अनेन कोषेण औषधोपचार स्वास्थ्य मातृत्व दुर्घटनाशक्तताश्रित परिवार वृद्धावस्था सुरक्षा योजनाः सञ्चाल्यमानाः वर्तन्ते। अधुनावधि कोषात 84,000 377 च योगदानकर्तृभिः विभिन्नानां योजनानां कृते सौविध्यं गृहीतं वर्तते। एतस्मिन् कोषे अधुनावधि 35,000 10 कोटीनां च रूप्यकाणां योगदान वित्तं संकलितं वर्तते। कोषे औपचारिक क्षेत्रस्य वैदेशिक क्षेत्रस्य च श्रमिकाः आबद्धाः सन्ति। अनौपचारिक क्षेत्रस्य स्ववृत्त्युपार्जनस्य च श्रमिकाणामपि सामाजिक सुरक्षा योजनायाम् आबद्धीकरणस्य क्रमः अन्तिमचरणं प्राप्तोस्तीति ज्ञापितं वर्तते। एतस्मिन् कोषे 17,064 च वृत्तिदायकाः 5,92,094 च श्रमिकाश्च सूचीकृताः सन्ति। हेटौडा वर्तिना मदन भण्डारी स्वास्थ्य विज्ञान प्रतिष्ठानेन आर्थिकाभावस्य कारणं प्रदर्श्य प्राविधिक चिकित्सकैः सह 44,000 प्राविधिकान् प्राशासनिक कर्मचारिणश्च न्यूनीकर्तुं निर्णीतमस्ति। प्रतिष्ठानस्य कार्यकारी परिषदः उपवेशेन वित्तस्य अभावस्य कारणेन आगामिनि आर्थिकवर्षे वेतनं भरणं च वितर्तुं न शक्येते इति निगद्य वर्तमानार्थिक वर्षे नियुक्तेभ्य कर्मचारिभ्य अवकाशं प्रदातुं निर्णीतम् अस्ति। प्रतिष्ठानाय हेटौडा चिकित्सालयाय च संघीयेन प्रादेशिकेन च सर्वकाराभ्यां वर्तमानार्थिक वर्षस्य अपेक्षया आगामिनि आर्थिक वर्षे न्यूनं वित्तं विनियुक्तम् वित्तेनानेन वेतन भरणयोः वितरणेपि समस्या भविष्यतीति प्रतिष्ठानस्य रजिष्ट्रार पदीयः राजेश प्रसाई अवोचत। प्रदेश सर्वकारेण वर्तमानार्थिक वर्षस्य तोलनायाम् आगामिनः आर्थिक वर्षस्य कृते प्रतिष्ठानाय 7,29,00,000 च रूप्यकाणि न्यूनीकृत्य 12 कोटयः 32,00,000 च रूप्यकाणि विनियुक्तानि वर्तन्ते। निष्कास्यमानेषु जनेषु 15 स्नातकाः चिकित्सकाः 1 आयुर्वेद चिकित्सकः 7 प्राविधिक कर्मचारिणः 25 प्राशासनिक कर्मचारिणश्च वर्तन्ते। सैव स्वच्छीकरण कार्यरतान् 35 सुरक्षा कार्ये संलग्नान् 25 च कर्मचारिणः अपि न्यूनीकर्तुं निर्णीतमस्ति। नेपाल गंज वर्तिनी भेरी चिकित्सालय रेबिज नाम्नः पशुज संक्रामक रोगस्य प्रतिरोधिनः टीकाकरणस्य अभावः सम्भूतोऽस्ति। चिकित्सालयेन पशुज संक्रामक रोग प्रतिरोधि टीकाकरणं निःशुल्कं प्रदीयमानम् आसीत्। परं संचित टीकाकरणानां समाप्तेः पश्चात् सम्प्रति सेवेयं प्रदातुं सक्ता नास्तीति चिकित्सालयेन ज्ञापितं वर्तते। सम्प्रति केन्द्रे प्रदेशापूर्ति केन्द्रे च रेबिज पशुज संक्रामक रोग प्रतिरोधिनः टीकाकरणस्य संचितिः याचनायाः अनुरूपं नास्ति इति सूचनं प्राप्तमस्ति। चिकित्सालये च संचितिः समाप्तास्ति इत्यतः टीकाकरणस्य पुनः आपूर्तिं यावत् निःशुल्कं टीकाकरणमेतत् प्रदातुं न शक्यते इति चिकित्सालयेन ज्ञापितं वर्तते। रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यनेन भाटकस्य सैन्यसमूहस्य प्रमुखेण एवगेनी प्रिगोजिन इत्याख्येन प्रकटितः सैनिक विद्रोहस्य समाह्वय विश्वासघातः राज्यद्रोहश्चेति संगितो वर्तते। रूसदेशीय राष्ट्रपतिः पुटिन दूरदर्शन सन्देशस्य माध्यमेन देशवासिनः सम्बोधयन् तस्य सैन्यसमूहस्य प्रमुखः दण्ड्यते इति दृढतां व्यनक्ति।